ಸಂಕಲ್ಪಮಾನಂ ಪ್ರಕಲ್ಪಮಾನಮುಪಕಲ್ಪಮಾನಮುಪಕಲ್ಪ್ತಂ ಕ್ಲುಪ್ತಂ ಶ್ರೇಯೋವಸೀಯ ಆಯತ್ ಸಂಭೂತಂ ಭೂತಂ ಚಿತ್ರಃ ಕೇತುಃ ಪ್ರಭಾನಾಭಾನ್ ಸಂಭಾನ್ ಜ್ಯೋತಿಷ್ಮಾಕಸ್ತೇಜಸ್ವಾನಾದಭಗ್ಸ್ತಪನ್ನಭಿತಪನ್ನ ರೋಚನಾರೋಚಮಾನಶೋಭನಶೋಭಮಾನಕಲ್ಯಾಣಃ ದರ್ಶಾ ದೃಷ್ಟಾ ದರ್ಶತ ವಿಶ್ವರೂಪಾಸುದರ್ಶನ ಆಪ್ಯಾಯಮಾನಾಪ್ಯಾಯಮಾನಾಪ್ಯಾಯಾ ಸಂಹೃತೇರಾ ಆಪೂರ್ಯಮಾನಾಪೂರ್ಯಮಾನಾ ಪೂರಯಂತಿ ಪೂರ್ಣಾ ಪೌರ್ಣಮಾಸೀ ದಾತಾ ಪ್ರದಾತಾನಂದೋ ಮೋದಃ ಪ್ರಮೋದಃ ಆವೇಶಯನ್ ನಿವೇಶಯನ್ ಸಂವೇಶನಃ ಸಗುಂಶಾಂತಃ ಶಾಂತಃ ಆಭವನ್ ಪ್ರಭವನ್ ಸಂಭವನ್ ಸಂಭೂತೋ ಭೂತಃ ಪ್ರಸ್ತುತಂ ವಿಷ್ಟುತಕಂ ಸಗ್ಗಸ್ತುತಂ ಕಲ್ಯಾಣಂ ವಿಶ್ವರೂಪಂ ಶುಕ್ರಮಮೃತಂ ತೇಜಸ್ವಿ ತೇಜಸ್ ಸಮಿದ್ಧಂ ಅರುಣಂ ಭಾನಮನ್ಮರೀಚಿಮದಭಿತಪತ್ತಪಸ್ಮೃತ್ ಸವಿತಾ ಪ್ರಸವಿತಾ ದೀಪ್ತೋ ದೀಪಯನ್ ದೀಪ್ಯಮಾನಃ ಜ್ವಲನ್ ಜ್ವಲಿತಾ ತಪನ್ ವಿತಪನ್ ಸಂತಪನ್ನ ರೋಚನೋ ರೋಚಮಾನ ಶುಂಭೋ ಶುಂಭವಾನೋ ವಾಮಃ ಸುತಾ ಸುನ್ವತಿ ಪ್ರಸುತಾ ಸೂಯಮಾನಾಭಿಷೂಯಮಾನ ಈತಿ ಪ್ರಭಾ ಸಂಪಾತೃಪ್ತಿ ಸ್ತರ್ಪಯಂತಿ ಕಾಂತಾ ಕಾಮ್ಯಾ ಕಾಮಜಾತಾ ಯುಷ್ಮತಿ ಕಾಮದುಃಖಾ ಅಭಿಶಾಸ್ತಾನುಮಂತಾನಂದೋ ಮೋದಃ ಪ್ರಮೋದಃ ಆಸಾದಯನ್ ನಿಷಾದಯನ್ ಸಗುಂಸಾದನ ಸಗುಂಸನ್ನ ಸನ್ನಃ ಪವಿಭೋರ್ವಿಭೋ ಪ್ರಭೋ ಶಂಭೋರ್ಭುವಃ ಪವಿತ್ರಂ ಭವಯಿಷ್ಯನ್ ಭೂತೋ ಮೇಧ್ಯಃ ಯಶೋ ಯಶಸ್ವಾನಾಯುರಮೃತಃ ಜೀವೋ ಜೀವಿಷ್ಯನ್ ಸ್ವರ್ಗೋ ಲೋಕಃ ಸಹ ಸ್ವಾನ್ ಸಹಿ ಯಾನೋಜಸ್ವಾನ್ ಸಹ ಮಾನಃ ಜಯನ್ನಭಿಜಯನ್ ಸುದ್ರವಿಣೋ ದ್ರವಿಣೋದಃ ಆರ್ದ್ರಪವಿತ್ರೋ ಹರಿಕೇಶೋ ಮೋದಃ ಪ್ರಮೋದಃ ಅರುಣೋರುಣರಜಃ ಕುಂಡಲೀಕೋ ವಿಶ್ವಜಿದಭಿಜಿತ್ ಆರ್ದ್ರಃ ಪಿನ್ವಮಾನೋನ್ನವಾನುರಸಪಾಣಿರಾವಾನ್ ಸರ್ವೌಷಧಃ ಸಂಭರೋ ಮಹಸ್ವಾನ್ ಏಜತ್ಕಾಜೋ ವತ್ಕಾಃ ಕ್ಷುಲ್ಲಕಾಶ್ಚಿಪಿಷ್ಟಕಾಃ ಸರಿಸ್ತರಾ ಸುಷೇರವಃ ಅಜಿರಾಸೋಗಮಿಷ್ಣವಃ ಇದಾನೀ ತದಾನೀ ಮೇತರಿ ಕ್ಷಿಪ್ರಮಜಿರಂ ಆಶುರ್ನಿಮೇಷ ಫಣೋ ದ್ರವನ್ನ ದಿದ್ರವನ್ನ ತ್ವರಗ್ಗಸ್ತರಮಾನ ಆಶುರಾಶೀಯಾಂಜವಃ ಅಗ್ನಿಷ್ಟೋಮ ಮುಖ್ಯೋತ್ರಿರಾತ್ರಸ್ತ್ರಿರಾತ್ರಶ್ಚತುರಾತ್ರಃ ಅಗ್ನಿರ್ಋತುಃಸೂರ್ಯಋತುಶ್ಚಂದ್ರಮಾಋತುಃ ಪ್ರಜಾಪತಿಃ ಸಂವತ್ಸರೋ ಮಹಾಂತಃ ಭೂರಗ್ನಿಂ ಚ ಪೃಥಿವೀಂ ಸಮಾಂಚ ತ್ರೀಯಶ್ಚ ಲೋಕಾನ್ ಸಂವತ್ಸರಂ ಚ ಪ್ರಜಾಪತಿಸ್ವಾಸಾದಯತೋ ತಯಾ ದೇವತಯಾಂಗಿರಸ್ವಧ್ರುವಾಸೀಯ ಭುವೋ ವಾಯುಂ ಚಾಂತರಿಕ್ಷಂ ಚ ಮಾಂ ಚ ತ್ರೀಯಶ್ಚ ಲೋಕಾನ್ ಸಂವತ್ಸರಂ ಚ ಪ್ರಜಾಪತಿಸ್ವಾಸಾದಯತೋ ತಯಾ ದೇವತಯಾಂಗಿರಸ್ವಧ್ರುವಾಸೀಯ ಸ್ವರಾದಿತ್ಯಂ ಚ ದಿವಂ ಚ ಮಾಂ ಚ ತ್ರೀಯಶ್ಚ ಲೋಕಾನ್ ಸಂವತ್ಸರಂ ಚ ಪ್ರಜಾಪತಿಸ್ವಾಸಾದಯತೋ ಯಾಂಗಿರಸ್ವಧ್ರುವಾಸೀದ ಭೋರ್ಭುವಸ್ವಶ್ಚಂದ್ರಮಸಂ ಚತುಷ್ಟಮಾಂ ಚ ತ್ರೀಗಶ್ಚ ಲೋಕಾನ್ ಸಂವತ್ಸರಂ ಚ ಪ್ರಜಾಪತಿಸ್ವಾಸಾದಯತೋ ತ್ವಯಾ ದೇವತಯಾಂಗಿರಸ್ವಧ್ರುವಾಸೀದ ತ್ವಮೇವ ತ್ವಾಂ ವೇತ್ಸಯೋಸಿ ಸೋಸಿ ತ್ವಮೇವ ತ್ವಾಮಜೈಷೀಃ ಚಿತಶ್ಚಾಸಿ ಸಂಚಿತಶ್ಚಾಸ್ಯಗ್ನೇ ಹೇತಾವಾಗಶ್ಚಾಸಿ ಭೂಯಾಗಶ್ಚಾಸ್ಯಗ್ನೇ ಯತ್ತೇ ಅಗ್ನೇನ್ಯೋನಂಗ್ಯದು ತೇಜರಿಕ್ತಂ ಆದಿತ್ಯಾಸ್ತದಂಗಿರಸಶ್ಚಿನ್ವಂತೋ ವಿಶ್ವೇ ತೇ ದೇವಾಶ್ಚಿತಿಮಾಪೂರಯಂತೋ ಚಿತಶ್ಚಾಸಿ ಸಂಚಿತಶ್ಚಾಸ್ಯಗ್ನೇ ಹೇತಾವಾಗಶ್ಚಾಸಿ ಭೂಯಾಗಶ್ಚಾಸ್ಯಗ್ನೇ ಮಾದೇರಗ್ನೆ ಚಯೇನ ಮಾತಿ ಚಯೇನಾಯುರಾವೃಕ್ಷಿ ಸರ್ವೇಷಾಂ ಜ್ಯೋತಿಷಾಂ ಜ್ಯೋತಿರ್ಯತದಾಹುತೇತಿ तपसो जातमनिभृष्टमोजः तत्ते ज्योतिरिष्टके तेन मे तप तेन मे ज्वल तेन मे दीदिः यावद्देवाः यावदसादिसूर्यः यावदुतापि ब्रह्म संवत्सरोऽसि परिवत्सरोऽसि यावत्सरोऽसि यवत्सरोऽसि यद्वत्सरोऽसि वत्सरोऽसि तस्य देव सन्तशिरः ग्रीष्मो दक्षिणः पक्षः वर्षाः पुच्छम् शरदुत्तरः पक्षः हेमन्तो मध्यम् पूर्वपक्षाश्चिरयः अपरपक्षाः पुरीशम् अहोरात्राणीष्टकाः ऋषभोऽसि स्वर्गो लोकः यस्यां दिशि महीयसे ततो नो मह आवः वायुर्भूत्वा सर्वादिश आवाहि सर्वादिशो न विवाहि सर्वादिशो न संवाहि चित्याचितिमापृण अचित्याचितिमापृण चितसि समुद्रयोनिः इन्दुर्दक्षस्येन ऋतावा हिरण्यपक्षस्य गुणोभुरण्यः महान्सधस्थे ध्रुव आनिषत्तः नमस्ते अस्तु मामाहिगुंसीः एति प्रेति वीति समेत्युदिति दिवम् मे यच्छ अन्तरिक्षम् मे यच्छ पृथिवीम् मे यच्छ पृथिवीम् मे यच्छ अन्तरिक्षम् मे यच्छ दिवम् मे यच्छ अह्ना प्रसारय रात्र्या समच रात्र्या प्रसारय अह्ना समच कामम् प्रसारय कामकम् समच भूद्भुवः स्वः ओजोबलम् ब्रह्मक्षत्रम् यशो महद् सत्यन्दभो नाम रूपममृतम् चक्षुश्रोत्रम् मन आयुः विश्वयशो महः समन्दभोहरोभाः धातवेदा यदि वा पावकोऽसि वैश्वानरो यदि वा वैद्युतोऽसि सम्प्रजाभ्यो यजमानाय लोकम् ऊर्जम् पुष्टिन्दरदभ्यावृत्स्व राज्ञी विराज्ञीः सम्राज्ञीः स्वराज्ञीः अर्थिश्रोचिः तवोहरोभाः अग्निरिन्द्रो बृहस्पतिः विश्वे देवा भुवनस्य गोपाः ते मा सर्वे यशसा सकम् सृजन्तु असभे स्वाहा वसभे स्वाहा विभुवे स्वाहा विवस्वते स्वाहा अभिभुवे स्वाहाधिपतये स्वाहा दिवाम् पतये स्वाहा कुम्भस्पत्याय स्वाहा चाक्षुषस्पत्याय स्वाहा ज्योतिष्मत्याय स्वाहा राज्ञे स्वाहा विराज्ञे स्वाहा सम्राज्ञे स्वाहा स्वराज्ञे स्वाहा शूषाय स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा ज्योतिषे स्वाहा संसत्पाय स्वाहा कल्याणाय स्वाहा अर्जुनाय स्वाहा विपश्चिते पवमानाय गायत महीनधारात्यन्धो अर्षति अहिरह जीर्णाम च सत्पति त्वचम् अत्यो न क्रीडन्न स रद्वृषा हरिः उपयामगृहीतोऽसि मृत्यवेः त्वाजुष्टम् गृह्णामि एष देयो निर्मृत्यवेः त्वा अपमृत्युमपक्षुधम् अपेतः शमसञ्जिः अधानो अग्न आवह रायस्पोषकम् सहस्रिणम् एते सहस्रमयुतम् पाशाः मृत्योमर्त्याय हन्तवे तानि यज्ञस्य मायया सर्वानवयजामहे भक्षोऽस्य मृतभक्षः तस्य ते मृत्युपीतस्यामृतवतः स्वयाकृतस्य मधुमतः उपहूतस्योपहूतो भक्षयामि मन्द्राभिभूतिः केतुर्यज्ञानाम् वा असावेहि अनन्तो जागृविप्राण असावेहि मधिराक्रन्दयितरपान असावेहि हस्तोस्वाचक्षुः असावेहि अपादाशोमनः असावेहि कवेभिप्रचित्ते श्रोत्र असावेहि स्वहस्तस्वासाः शूषो नामास्य मृतो मध्येषु वेद असावेहि अग्निर्मे वाचश्रितः वाग्हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि वायुर्मे प्राणे स्थितः प्राणो हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि सूर्यो मे चक्षुषिश्रितः चक्षुरहृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि चन्द्रमा मे मनसि श्रितः मनोहृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि यशो मे श्रोत्रे श्रिताः श्रोत्रकम् हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि आवो मे रेतसि श्रिताः रेतो हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि पृथिवी मे शरीरे श्रिता शरीरकम् हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि ओषधिवनस्पतयो मे लोमसुश्रिताः लोमानि हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि इन्द्रो मे बले शिरः बलकम् हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि पर्जन्यो मे मूर्ध्यश्रितः मूर्धा हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि ईशानो मे मन्यौ श्रितः मन्युर्हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि आत्मा म आत्मनि श्रितः आत्मा हृदये हृदयम् मयि अहमृते अमृतम् ब्रह्मणि पुनर्म आत्मा पुनरायुरागात् पुनः प्राणः पुनरागोतमागात् वैश्वानरो रश्मिभिर्वावृधानः अन्तस्तिष्ठत्वमृतस्य गोपाः प्रजापतिर्देवानसृजत ते पाप्मना सन्दिता अजायन्त तान्यद्यत् यद्यद्यत् तस्माद्विद्युत् तमवृश्यत् यदवृश्यत् तस्माद्दृष्टिः तस्माद्यत्रैते देवते अभिप्राप्नुमः विजहैवासयत्रपाप्मानन्द्यतः पृष्टदश्च सैषामी मा पुंसाग्निहोत्र एव सम्पन्ना असो आहुः सर्वेषु यज्ञकृतुष्मिति होषन्नप उपस्पृशेत् विद्युदसि विद्यमे पाप्मानमिति असहुत्वोपस्पृशेत् वृष्टिरसि वृश्च मे पाप्मानमिति यक्ष्यमानो वेष्वा वा विजहैवासीते देवते पाप्मानन्द्यतः दृष्टदश्च अत्यगुम्होहारुणिः ब्रह्मचारिणे प्रश्नान् प्रोच्य प्रतिघाय परेहि रक्षन्दय्याम् पातिम् पृच्छ वेत्सदाभित्रा तमागत्यपप्रच्छ आचार्यो मा प्राहैषीत् वेत्सदाभित्रा परोरजा इति एष वावस परोरजा इति होवाच य एष तपति एषोर्वाग्रजा इति स कस्मिन् देश इति सत्य इति किन्तत्सत्यमिति तप इति कस्मिन्न तप इति बल इति किन्तत्बलमिति प्राण इति मा स्वप्राणमधिपृच्छ इति माचार्यो प्रवीदिति होवाच ब्रह्मचारी सोवाच प्रक्षोदय्याम् पादिः यद्वै ब्रह्मचारिम् प्राणमत्यप्रक्ष्यः मूर्धा देव्यपतिष्यत् अहमुदाचार्याच्छ्रेयान् भविष्यामि यो मा सावित्रे समवादिष्टेति तस्मात् सावित्रेण संवदेत स यो हवै सावित्रम् विदुषा सावित्रे संवदते सास्मिन् श्रियम् दधाति अनुहवा अस्मासौदपम् श्रियम् मन्यते अन्वस्मै श्रीस्तपो मन्यते अन्वस्मै तपो बलम् मन्यते अन्वस्मै बलम् प्राणम् मन्यते स यदाः संज्ञानम् विज्ञानम् दर्शा दृष्टेति एष एव तत् अस यदाः प्रस्तुतम् विष्णुतकम् सुता सन्वतीति एष एव तत् एष ह्येवलान्यहानि एष पिताभिधास्तानुमन्तेति एष एव तत् एषस्येव तेन्द्वमुहूर्ताः एष रात्रेः असयदाः पवित्रम् भवयिष्यन् सहस्रान् सहीयानर्णो ऋणरदाति एष एव तत् एषस्येव तेर्धमासाः एष मासाः असयदाः अग्निष्टोमवृष्योऽग्निरतः प्रजापतिः संवत्सर इति एष एव तत् एष ह्येव ते यज्ञक्रतवः एष ऋतवः एष संवत्सरः असयदाः इदानीम् तदानीमिति एष एव तत् एष ह्येव ते मुहूर्तानाम् मुहूर्ताः जनको ह वै देहः अहोरात्रैः समाजकाम तगुम्भोचो यो वा अस्मान् वेद विजहत्पात्मानमेति सर्वमायुरेति अभिस्वर्गम् लोकम् जयति नास्यामस्मिन् लोकेऽन्नम् क्षीयत इति विजहद्भवै पाप्मानमेति सर्वमायुरेति अभिस्वर्गम् लोकम् जयति नास्यामस्मिन् लोकेऽन्नम् क्षीयते एवम् वेद अहीनाहाश्वत्स्यः सावित्रम् विदाञ्चकारा सह हंसो हिरण्मयो भूत्वा स्वर्गम् लोकमियाय आदित्यस्य सायुज्यम् हंसो हवै हिरण्मयो भूत्वा स्वर्गम् लोकमेति आदित्यस्य सायुज्यम् यदेवम् वेद देवभागो ह्रौतर्षः सावित्रम् विदाञ्चकार तगम् हवागदृश्यमानाभ्युवाच सर्वम् बदगो तमो वेद यसावित्रम् वेदेति सहोवाच कैषा वागसीति अयमहगुम् सावित्रः देवानामुत्तमो लोकः गोह्यम् महो बिभ्रदिति एतावतिह गौतमः यज्ञोपवीतम् कृत्वाधो निपपात नमो नम इति सहोवाच माभैषीर्गौतम जितो वैते लोक इति तस्माद्येके च सावित्रम् विदुः सर्वे देशितलोकाः स यो ह वै सावित्रस्याष्टाक्षरम् पदर्ति श्रियाभिषिक्तम् वेद श्रिया हैवाभिषिच्यते धरेणिद्वे अक्षरे सूर्यैति त्रीणि आदित्यैति त्रीणि एतद्वै सावित्रस्याष्टाक्षरम् पदर्ति श्रियाभिषिक्तम् य एवम् वेद श्रिया हैवाभिषिच्यते तदेतदृचाभ्युक्तम् ऋचो अक्षरे परमे व्योमन् यस्मिन् देवादिविश्वे निषेदुः यस्तन्न वेद किमृचाकरिष्यति य इत्तद्विदुस्त इमे समासत इति न हवा एतस्यर्चानयजुषानसाम्नार्थोऽस्ति यस्सावित्रम् वेद तदेतत्पर्यद्देव चक्रम् आद्रम् विन्दमानज्ञस्वर्गे लोकयेति विजहद्विश्वा भूतानि सम्पश्यत् आर्द्रो हवे विन्द्रमाणस्वर्गे लोकयेति विजहद्विश्वा भूतानि सम्पश्यन् य एवम् वेद शोषो हवैवास्मेयः आदित्येन समाजकाम तगुम्भोवाच ये हि सावित्रम् विद्धि अयम् वै स्वर्ग्योऽग्न्यः पारयिष्णुरमतात् सम्भूत इति एष वावस सावित्रः य एष तपति ये हि माम् विद्धि इति हैवैनन्ददुवाच इयम् वावसरघाः तस्या अग्निरेव सारघम् मधु या एताः पूर्वपक्षापरपक्षयो रात्र्यः ता मधुकृतः यान्यहानि ते मधुवृषाः स यो हवा एता मधुकृतश्च मधुवृषागश्च वेद कुर्वन्ति हा सीता अग्नौ मधु नास्येष्टा भूर्तन्धयन्ति असयो न वेद नहा सीता अग्नौ मधु कुर्वन्ति धयन्त्यस्येष्टा भूर्तम् यो हवा अहोरात्राणान्नामधेयानि वेद माहोरात्रेष्वार्तिमार्च्छति सम् ज्ञानम् विज्ञानम् दर्शा दृष्टेति एतावनुभागो पूर्वपक्षस्याहोरात्राणान्नामधेयानि प्रस्तुतम् विष्णुदकम् सुता सम्भतीति एतावनुभागावपरपक्षस्याहोरात्राणान्नामधेया नमुहूर्तेष्वार्तिमार्च्छति चित्रः केतुर्धाता प्रधाता सभिता प्रसभिताभिशास्तानुमन्तेति एतेन वाकामुहूर्तानान्नामधेयानि नमुहूर्तेष्वार्तिमार्च्छति यदेवम् वेद यो हवा अर्धमासानाम् च मासानाम् च नामधेयानि वेद नार्धमासेषु न मासेष्वार्तिमार्च्छति पवित्रम् पवयिष्यान् सहस्रान् सहीयान् ऋणो ऋणरुधा इति एतेन वाकार्धमासानाम् च मासानाम् च नामधेयानि नार्धमासेषु न मासेष्वार्तिमार्च्छति य एवम् वेद यो हवै यज्ञक्रतूणाम् च क्रूणाम् च संवत्सरस्य नामधेयानि वेद न यज्ञक्रतुषु न कृषु न संवत्सर आर्तिमार्च्छति आगिष्टोम उक्ष्योऽज्ञतुः प्रजापतिः संवत्सर इति एतेन वाकायज्ञक्रतूणाम् च क्रूणाम् च संवत्सरस्य च नामधेयानि न यज्ञक्रतुषु न कृषु न संवत्सर आर्तिमार्च्छति य एवम् वेद यो हवै मुहूर्तानाम् मुहूर्तान् वेद न मुहूर्तानाम् मुहूर्तेष्वार्तिमार्च्छति इदानीम् तदानीमिति एते वै मुहूर्तानाम् मुहूर्ताः न मुहूर्तानाम् मुहूर्तेष्वार्तिमार्च्छति य एवम् वेद अथो यथा क्षेत्रज्ञो भूतानप्रविश्यान्नमत्ति एवमेवैतान् क्षेत्रज्ञो भूत्वानुप्रविश्यान्नमत्ति स एतेषामेव स लोकताकुंसायुज्यमश्नुते अपपुणन् मृत्युञ्जयति य एवम् वेद कश्चिद्धवा अस्माल्लोकात् प्रेत्य आत्मानम् वेद अयमहमस्मीति कश्चित् स्वम् लोकम् न प्रतिप्रजानाति अग्निमुद्धो हैमधूमतान्तः स्वम् लोकम् न प्रतिप्रजानाति असयो हैवैतमग्निकम् सावित्रम् वेद स एवास्माल्लोकात् प्रेत्य आत्मानम् वेद अयमहमस्मीति स स्वम् लोकम् प्रतिप्रजानाति एषौ वेवैनम् तत्सावित्रः स्वर्गम् लोकमभिवहति अहोरात्रैर्वा इदकम् सयुग्भिः क्रियते इति रात्राय दीक्षिषत इति रात्राय भृतमुपागुरिति तानिहानेवम् विदुषः अमुष्मिन् लोके शेवधिन्धयन्ति हीतकम् हैव सशेवधिमनुकरैति अथ यो हैवैतमग्निकम् सावित्रम् वेद तस्य हैवाहोरात्राणि अमुष्मिन् लोके शेवधिन्नथयन्ति अधीतकम् हैव सशेवधिमनुपरैति भरद्वाजो हत्रिभिरायुर्भिर्ब्रह्मचर्यमुवास तगम् भजेर्निद्रस्थरिरगुंशयानम् इन्द्र उपभ्रज्यो वाच भरद्वाज यत्ते चतुर्थमायुर्दद्या किमेनेन कुर्यामिति ब्रह्मचर्यमेवेन चरेयमिति होवाच तगम् भद्रेन्द्रिरूपानविज्ञातानि वदर्शयाञ्चकार तेषागम् हैकैकस्मान्मुष्टिना दधे स होवाच भरद्भाजेत्यामन्त्र्य वेदा वा एते अनन्ता वै वेदाः एतद्वा एतैः स्त्रिभिरायुर्भिरन्वोचथाः असदयितरदननोक्तमेव एहिमम् विद्धि अयम् वै सर्वविद्येति तस्मै हैतमग्निकम् सावित्रमुवाच तकम् सविहित्वा अमृतो भूत्वा स्वर्गम् लोकमियाय आदित्यस्य सायुध्यम् अमृतो हैव भूत्वा स्वर्गम् लोकमेति आदित्यस्य सायुज्यम् य एवम् वेद एषो एव त्रयी विद्या यावन्तकम् भवेत्त्रय्या विद्यया लोकम् जयति तावन्तम् लोकम् जयति य एवम् वेद अग्नेर्वा एतानि नामधेयानि अग्नेरेव सायुज्यकम् स लोकतामाप्नोति य एवम् वेद वायोर्वा एतानि नामधेयानि वायोरेव सायुज्यकम् स लोकतामाप्नोति य एवम् वेद इन्द्रस्य वा एतानि नामधेयानि इन्द्रस्यैव सायुज्यकम् स लोकतामाप्नोति य एवम् वेद बृहस्पतेर्वा एतानि नामधेयानि बृहस्पतेरेव सायुज्यकम् स लोकतामाप्नोति य एवम् ब्रह्मण एव सायुज्यकम् सलोकतामाप्नोति एवम् वेद सवाभेषोऽग्निरपक्षपुच्छो वायुरेव तस्याग्निर्मुखम् असावादित्यशिरः स यदेते देवतेऽन्तरेण तत्सर्वगुंसीव्यति तस्मात् सावित्रः